श्रीलक्ष्मीहृदयम् अस्य श्री आद्यादि श्री महालक्ष्मीहृदयस्तोत्र महामन्त्रस्य भार्गवऋषिः अनुष्टुभादि नाना छन्दांसि आद्यादि श्री महालक्ष्मी सहित नारायणो देवता श्रीं बीजम् ह्रीं शक्तिः ऐं कीलकम् आद्यादि श्री महालक्ष्मी प्रसाद सिद्ध्यर्थे जपे विनियोगः आद्यादि श्री महालक्ष्मी देवतायै नमः इति हृदये श्रीं बीजायै नमः इति गुह्ये ह्रीं शक्त्यै नमः इति पादयोः ऐं बलायै नमः इति मूर्धादिपादपर्यन्तम् विन्यसेत् ॐ श्रीं ह्रीं ऐं करतलकरपार्श्वयोः श्रीं अङ्गुष्ठाभ्यां नमः ह्रीं तर्जनीभ्यां नमः ऐं मध्यमाभ्यां नमः श्रीं अनामिकाभ्यां नमः ह्रीं कनिष्ठिकाभ्यां नमः ऐं करतलकरपृष्ठाभ्यां नमः श्रीं हृदयाय नमः ह्रीं शिरसे स्वाहा ऐं शिखायै वौषट् श्रीं कवचाय हुं ह्रीं नेत्राभ्यां वौषट् ऐं अस्त्राय फट् भूर्भुवः सुवरोम् इति दिग्बन्धः
अथ ध्यानम्
हस्तद्वयेन कमले धारयन्तीं स्वलीलया हारनूपुरसंयुक्ताम् महालक्ष्मीम् विचिन्तयेत् कौशेयपीतवसनामरविन्दनेत्राम् पद्मद्वयाभयवरोद्यतपद्महस्ताम् उद्यच्च शाङ्कसदृशाम् परमाङ्कसंस्थाम् ध्यायेद्विदेशनतपादयुगाम् जनित्रीम् श्रीलक्ष्मीकमलधारिण्यै सिंहवाहिन्यै स्वाहा पीतवस्त्राम् सुवर्णाङ्गीम् पद्महस्तद्वयान्विताम् लक्ष्मीम् ध्यात्वेति मन्त्रेण स भवेत् पृथिवीपतिः मातुलुङ्गगदाखेटे पाणौ पात्रम् च बिभ्रति वागलिङ्गम् च मानम् च बिभ्रति नृपमूर्धनि ॐ श्रीं ह्रीं ऐं वन्दे लक्ष्मीम् परशिवमयीम् शुद्धजाम्बूनदाभाम् तेजोरूपाम् कनकवसनाम् सर्वभूषोज्ज्वलाङ्गीम् बीजापूरम् कनककलशम् हेम पद्मम् दधानाम् आद्याम् शक्तिम् सकलजननीम् सर्वमाङ्गल्ययुक्ताम् श्रीमत्सौभाग्यजननीम् स्तौमि लक्ष्मीम् सनातनीम् सर्वकामफलावाप्ति साधनैकसुखावः स्मरामि नित्यं देवेशी त्वया प्रेरितमानसः त्वदाज्ञां शिरसा धृत्वा भजामि परमेश्वरी समस्तसम्पत्सुखदा महाश्रियम् समस्तकल्याणकरी महाश्रियम् समस्तसौभाग्यकरी महाश्रियम् भजाम्यहम् ज्ञानकरी महाश्रियम् विज्ञानसम्पत्सुखदा महाश्रियम् विचित्रवाग्भूतिकरी मनोरमा अनन्तसौभाग्यसुखप्रदायिनी नमाम्यहम् भूतिकरीम् हरिप्रिया समस्तभूतान्तरसंस्थिता त्वम् समस्तभक्तेश्वरि विश्वरूपे तन्नास्ति यत्त्वद्व्यतिरिक्तवस्तु त्वत्पादपद्मम् प्रणमाम्यहम् श्रीः दारिद्र्यदुःखौघतमो निहन्त्री त्वत्पादपद्मम् मयि सन्निधत्स्व दीनार्थिविच्छेदनहेतुभूतैः कृपाकटाक्षैरभिषिञ्च माम् श्रीः विष्णुस्तुतिपराम् लक्ष्मीम् स्वर्णवर्णस्तुतिप्रियाम् वरदाभयदाम् देवीम् वन्दे त्वाम् कमलेक्षणे अम्बप्रसीदकरुणापरिपूर्णदृष्ट्या माम् त्वत्कृपाद्रविणगेहमिमम् कुरुष्व आलोकय प्रणतहृद्गतशोकहन्त्री त्वत्पादपद्मयुगलम् प्रणमाम्यहम् श्रीः शान्त्यै नमोऽस्तु शरणागतरक्षणायै कान्त्यै नमोऽस्तु कमणीयगुणाश्रयायै क्षान्त्यै नमोऽस्तु दुरिदक्षयकारणायै धात्र्यै नमोऽस्तु धनधान्यसमृद्धिदायै शक्त्यै नमोऽस्तु शशिशेखरसंस्थितायै रत्यै नमोऽस्तु रजनीकरसोदरायै भक्त्यै नमोऽस्तु भवसागरतारकायै मत्यै नमोऽस्तु मधुसूदनवल्लभायै लक्ष्म्यै नमोऽस्तु शुभलक्षणलक्षितायै सिद्ध्यै नमोऽस्तु सुरसिद्धसुपूजितायै धृत्यै नमोऽस्तु मम दुर्गतिभञ्जनायै गत्यै नमोऽस्तु वरसद्गतिदायकायै देव्यै नमोऽस्तु दिवि देवगणार्चितायै भूत्यै नमोऽस्तु भुवनार्तिविनाशकायै शान्त्यै नमोऽस्तु धरणीधरवल्लभायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवत्सलायै सुतीव्रदारिद्र्यतमोपहन्त्र्यै नमोऽस्तु ते सर्वभयापहन्त्र्यै श्रीविष्णुवक्षस्थलसंस्थितायै नमो नमः सर्वविभूतिदायै जयतु जयतु लक्ष्मीर्लक्षणालङ्कृताङ्गी जयतु जयतु पद्मा पद्मसद्माभिवन्द्या जयतु जयतु विद्या विष्णुवामाङ्कसंस्था जयतु जयतु सम्यक् सर्वसम्पत्करा श्रीः जयतु जयतु देवी देवसङ्गाभिपूज्या जयतु जयतु भद्रा भार्गवी भाग्यरूपा जयतु जयतु नित्या निर्मलज्ञानवेद्या जयतु जयतु सत्या सर्वभूतान्तरस्था जयतु जयतु रम्या रत्नगर्भान्तरस्था जयतु जयतु शुद्धा शुद्धजाम्बूनदाभा जयतु जयतु कान्ता कान्तिमद्भासिताङ्गी जयतु जयतु शान्ता शीघ्रमागच्छ सौम्ये यस्याः कलायाः कमलोद्भवाद्याः रुद्राश्च शक्रप्रमुखाश्च देवाः जीवन्ति सर्वेऽपि सशक्तयस्ते प्रभुत्वमाप्ताः परमायुषस्ते मुखबीजम् ॐ ह्रां ह्रीं अं आं यम् दुं लम् वम् विलेखनिटिले विधिर्मम लिपिम् विसृज्यान्तरम् त्वया विलिखितव्यमेतदिति तत्फलप्राप्तये तदन्तिकफलस्फुटम् कमलवासिनि श्रीरिमा समर्पय समुद्रिकाम् सकलभाग्यसंसूचिकाम् पादबीजम् ॐ अम् आम् ईं एम् ऐं कम् लम् रम् कलयाते यथा देवी जीवन्ति सचराचराः तथा सम्पत्करी लक्ष्मी सर्वदा सम्प्रसीद मे यथा विष्णुर्ध्रुवम् नित्यम् स्वकलाम् संन्यवेशयत् तथैव स्वकलाम् लक्ष्मी मयि सम्यक् समर्पय सर्वसौख्यप्रदे देवी भक्तानामभयप्रदे अचलाम् कुरु यत्नेन कलाम् मयि निवेशिताम् मुदास्ताम् मत्पाले परमपदलक्ष्मी स्फुटकला सदा वैकुण्ठश्रीर्निवसतु कला मे नयनयोः वसे सत्ये लोके मम वचसि लक्ष्मीर्वरकला श्रियश्वेतद्वीपे निवसतु कला मे स्वकरयोः नेत्रबीजम् ॐ घ्रां घ्रीं घ्रें घ्रैं ग्रह तावन्नित्यम् ममाङ्गेषु क्षीराब्धौ श्रीकला वसेत् सूर्या चन्द्रमसौ यावत् तावल्लक्ष्मीपतिश्रियौ सर्वमङ्गलसम्पूर्णा सर्वैश्वर्यसमन्विता आद्यादिश्रीमहालक्ष्मी स्वत्कलामयि तिष्ठतु अज्ञानतिमिरम् हन्तुम् शुद्धज्ञानप्रकाशिका सर्वैश्वर्यप्रदामेऽस्तु त्वत्कलामयि संस्थिता अलक्ष्मीम् हरदु क्षिप्रम् तमः सूर्यप्रभा यथा वितनोतु मम श्रेयस्त्वत्कलामयि संस्थिता ऐश्वर्यमङ्गलोत्पत्तिस्त्वत्कलायाम् निधीयते मयि तस्मात् कृतार्थोऽस्मि पात्रमस्मि स्थितेस्तव भवदावेश भाग्यार्हो भाग्यवानस्मि भार्गवी त्वत्प्रसादात् पवित्रोऽहम् लोकमातर्नमोऽस्तु ते पुनासि माम् त्वत्कलयैव यस्मात् अतः समागच्छ ममाग्रतस्त्वम् परम् पदम् श्रीर्भवसु प्रसन्ना मय्यच्युतेन प्रविशादिलक्ष्मीः श्रीवैकुण्ठस्थिते लक्ष्मी समागच्छ ममाग्रतः नारायणेन सह माम् कृपादृष्ट्यावलोकय सत्यलोकस्थिते लक्ष्मी त्वम् ममागच्छ सन्निधिम् वासुदेवेन सहिता प्रसीद वरदा भव श्वेतद्वीपस्थिते लक्ष्मी शीघ्रमागच्छ सुव्रते विष्णुना सहिता देवी जगन्मातः प्रसीद मे क्षीराम्बुधिस्थिते लक्ष्मी समागच्छ समाधवे त्वत्कृपादृष्टिसुधया सततम् माम् विलोकय रत्नगर्भस्थिते लक्ष्मी परिपूर्णहिरण्मयी समागच्छ समागच्छ स्थित्वा शुपुरतो मम स्थिरा भव महालक्ष्मी निश्चला भव निर्मले प्रसन्नकमले देवी प्रसन्नहृदया भव श्रीधरे श्रीमहालक्ष्मी त्वदन्दस्थम् महानिधिम् शीघ्रमुद्धृत्य पुरतः प्रदर्शय समर्पय वसुन्धरे श्रीवसुदेवसुदोग्ध्रिकृपामयी त्वत्कुक्षिगत सर्वस्वम् शीघ्रम् मे सम्प्रदर्शय विष्णुप्रिये रत्नगर्भे समस्तफलदे शिवे त्वद्गर्भगत हेमादीन् सम्प्रदर्शय दर्शय रसातलगते लक्ष्मी शीघ्रमागच्छ मे पुरः न जाने परमम् रूपम् मातर्मे सम्प्रदर्शय आविर्भव मनो वेगात् शीघ्रमागच्छ मे पुरः मा वत्स भैरिहेत्युक्त्वा कामम् गौरिवरक्षमाम् देवि शीघ्रम् ममागच्छ धरणी गर्भसंस्थिते मातस्त्वद्भृत्य भृत्योऽहम् मृगये त्वाम् कुतूहलात् उत्तिष्ठ जागृहि मयी समुत्तिष्ठ सुजागृहि अक्षय्यान् हेमकलशान् सुवर्णेन सुपूरितान् निक्षेपान् मे समाकृष्य समुद्धृत्य ममाग्रतः समुन्नताननाः भूत्वा सम्यग् देहि धरातलात् मत्सन्निधिम् समागच्छ मदाहितकृपारसा प्रसीदश्रेयसाम् दोग्ध्री लक्ष्मीर्मे नयनाग्रतः अत्रोपविश्य लक्ष्मी त्वम् स्थिरा भव हिरण्मयी सुस्थिरा भव सम्प्रीत्या प्रसन्ना वरदा भव आनीताम् स्तुत्वया देवी निधीन् वै सम्प्रदर्शय अद्यक्षणेन सहसा दत्त्वा संरक्ष माम् सदा मयि तिष्ठ तथा नित्यम् यथेन्द्रादिषु तिष्ठसि अभयम् कुरु मे देवी महालक्ष्मी नमोऽस्तु ते समागच्छ महालक्ष्मी शुद्धजाम्बूनदस्थिते प्रसीद पुरतः स्थित्वा प्रणतम् माम् विलोकय लक्ष्मीर्भुवं गता भासी यत्र यत्र हिरण्मयी तत्र तत्र स्थिता त्वं मे तव रूपं प्रदर्शय क्रीडन्ति बहुधा भूमौ परिपूर्णकृपामयी मम मूर्धनि ते हस्तमविलम्बितमर्पय फलभाग्योदये लक्ष्मी समस्तपुरवासिनी प्रसीद मे महालक्ष्मी परिपूर्णमनोरथे अयोध्यादिषु सर्वेषु नगरेषु समास्थिते वैभवैर्विविधैर्युक्तैः समागच्छ मुदान्विते समागच्छ समागच्छ ममाग्रे भव सुस्थिरा करुणारसनिष्यन्द नेत्रद्वय विलासिनी सन्निधत्स्व महालक्ष्मी त्वत्पाणिम् मम मस्तके करुणासुधया माम् त्वम् अभिषिच्य स्थिरम् कुरु सर्वराजगृहे लक्ष्मी समागच्छ बलान्विते स्थित्वा शुपुरतो मेद्य प्रसादेनाभयम् कुरु सादरम् मस्तके हस्तम् मम त्वम् कृपयार्पय सर्वराजस्थिते लक्ष्मी त्वत्कला मयि तिष्ठतु आद्यादिश्री महालक्ष्मी विष्णुवामाङ्ख संस्थिते प्रत्यक्षम् कुरु मे रूपम् रक्ष माम् शरणागतम् प्रसीद मे महालक्ष्मी सुप्रसीद महाशिवे अचला भव सुप्रीता सुस्थिरा भव मद्गृहे यावत्तिष्ठन्ति वेदाश्च यावच्चन्द्रदिवाकरौ यावद्विष्णुश्च यावत्त्वम् तावत् कुरु कृपाम् मयि चान्द्रीकला यथा शुक्ले वर्धते सा दिने दिने तथा दयाते मय्येव वर्धतामभिवर्धताम् यथा वैकुण्ठनगरे यथा वै क्षीरसागरे तथा मद्भवने तिष्ठ स्थिरम् श्रीविष्णुना सह योगिनाम् हृदये नित्यम् यथा तिष्ठसि विष्णुना तथा मद्भवने तिष्ठ स्थिरम् श्रीविष्णुना सह नारायणस्य हृदये भवति यथास्ते नारायणोऽपि तव हृत्कमले यथास्ते नारायणस्त्वमपि नित्यमुभौ तथैव तौ तिष्ठताम् हृदि ममापि दयान्वितौ श्रीः विज्ञानवृद्धिम् हृदये कुरु श्रीः सौभाग्यवृद्धिम् कुरु मे गृहे श्रीः दयासुवृष्टिम् कुरुताम् मयि श्रीः सुवर्णवृष्टिम् कुरु मे करे श्रीः नमाम् त्यजेथाश्रितकल्पवल्ली सद्भक्तिचिन्तामणिकामधेनो नमाम् त्यजेथा भव सुप्रसन्ने गृहे कळत्रेषु च पुत्रवर्गे कुक्षिबीजम् ॐ अम् आम् ईम् येम् ऐम् आद्यादिमाये त्वमजाण्डबीजम् त्वमेव साकार निराकृतिस्त्वम् त्वया धृताश्चाब्ज भवाण्ड सङ्घाः चित्रम् चरित्रम् तव देवि विष्णोः ब्रह्म रुद्रादयो देवा वेदाश्चापि न शक्नुयुः महिमानम् तव स्तोतुम् मन्दोऽहम् शक्नुयाम् कथम् अम्ब त्वद्वत्स वाक्यानि सूक्तानि यानि च तानि स्वीकुरु सर्वज्ञे दयालुत्वेन सादरम् भवतीम् शरणम् गत्वा कृतार्था स्युः पुरातनाः इति सञ्चिन्त्य मनसा त्वामहम् शरणम् व्रजे अनन्तानित्यसुखिनस्त्वद्भक्तास्त्वत्परायणाः इति वेदप्रमाणाद्धि देवि त्वाम् शरणम् व्रजे तव प्रतिज्ञामद्भक्ता न नश्यन्तीत्यपि क्वचित् इति सञ्चिन्त्य प्राणान् सन्धारयाम्यहम् त्वदधीनस्त्वहम् मातस्त्वत्कृपा मयि विद्यते यावत् सम्पूर्णकामस्याम् तावद्देहि दयानिधे क्षणमात्रम् न शक्नोमि जीवितम् त्वत्कृपाम् विना न हि जीवन्ति जलजा जलम् त्यक्त्वा जलाश्रयाः यथा हि पुत्रवात्सल्याज्जननि प्रश्नुतस्तणि वत्सम् त्वरितमागत्य सम्प्रीणयति वत्सला यदि स्यात्तव पुत्रोऽहम् माता त्वम् यदि मामकी दयापयोधरस्तन्य सुदाभिरभिषिञ्च माम् मृग्यो न गुणलेशोऽपि मयि दोषैकमन्दिरे पांसूनाम् वृष्टिबिन्दूनाम् दोषानाम् च न मे मतिः पापिनामहमेकाग्रो दयालूनाम् त्वमग्रणीः दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये विधिनागम् न सृष्टश्चेद् न स्यात्तव दयालुता आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः कृपामदग्रजा किम् ते अहम् किम् वा तदग्रजः विचार्य देहि मे वित्तम् तव देवि दयानिधे माता पिता त्वम् गुरुसद्गतिश्रीः त्वमेव सञ्जीवनहेतुभूता अन्यम् न मन्ये जगदेकनाथे त्वमेव सर्वम् मम देवि सत्यम् हृदयबीजम् ॐ ग्रीं घ्रों घ्रैं घ्रौं घ्रः हुं फट् कुरु स्वाहा आद्यादिलक्ष्मीर्भव सुप्रसन्ना विशुद्ध विज्ञान सुखैकदोग्ध्री अज्ञानहन्त्री त्रिगुणातिरिक्ता प्रज्ञाननेत्री भव सुप्रसन्ना अशेषवाग्जाड्यमलापहन्त्री नवम् नवम् सुष्ठु सुवाक्यदायिनी ममैव जिह्वाग्रसुरङ्गवर्तिनी भव प्रसन्ना वदने च मे श्रीः समस्तसम्पत्सु विराजमाना समस्त तेजस्सु विभासमाना विष्णुप्रिये त्वं भवदीप्यमाना वाग्देवतामे वदने प्रसन्ना सर्वप्रदर्शे सकलार्थदे त्वं प्रभासुलावण्यदया प्रदोग्ध्री सुवर्णदे त्वं सुमुखी भवश्रीः हिरण्मयी मे नयने प्रसन्ना सर्वार्थदा सर्वजगत्प्रसूतिः सर्वेश्वरी सर्वभयापहन्त्री सर्वोन्नता त्वं सुमुखी च न श्रीः हिरण्मयी मे भव सुप्रसन्ना समस्तविघ्नौघ विनाशकारिणी समस्तभक्तोद्धरणे विचक्षणा अनन्तसम्मोदसुखप्रदायिनी हिरण्मयी मे नयने प्रसन्ना देवि प्रसीददयनीयतमाय मह्यम् देवाधिनाथ भवदेव गणादिवन्द्ये मातस्तथैव भव सन्निहितादृशोर्मे पत्या समं मम मुखे भव सुप्रसन्ना मा वत्स भैरभयदानकरोऽर्पितस्ते मौलौ ममेति मयि दीनजनानुकम्पे मातः समर्पय मुदा करुणाकटाक्षम् माङ्गल्यबीजमिगणसृज जन्म मातः कण्ठबीजम् ॐ श्राम् श्री श्रं श्रः कटाक्षैः कामधुक्तवमनस्तु चिन्तामणिः करःसुरतरुः सदानवनिधिस्त्वमेवेन्दिरे भवेत्तव दयारसो मम रसायनं चान्वहम् मुखं तव कलानिधिर्विविधवाञ्छितार्थप्रदम् यथा रसस्पर्शनतो यसोऽपि सुवर्णता स्यात् कमले तथा ते कटाक्षसंस्पर्शनतो जनानाम् अमङ्गलानामपि मङ्गलत्वम् देहीति नास्तीति वचः प्रवेशात् भीतो रमे त्वाम् शरणम् प्रपद्ये अतः सदास्मिन्नभयप्रदा त्वम् सहैव पत्या मम सन्निधेहि कल्पद्रुमेण मणिना सहिता सुरम्या श्रीस्ते कलामयि रसेन रसायनेन आस्तामतो मम च दृक्करपाणिपाद स्पृष्ट्या सुवर्णवपुषस्थिरजङ्गमा स्युः आद्यादिविष्णो स्थिरधर्मपत्नी त्वमम्बपत्या मम सन्निधेहि आद्यादिलक्ष्मी त्वदनुग्रहेण पदे पदे मे निधिदर्शनम् स्यात् आद्यादिलक्ष्मी हृदयम् पठेद्यः सराज्यलक्ष्मीमचलाम् तनोति महादरिद्रोऽपि भवेद्धनाढ्यः तदन्वये श्रीस्थिरताम् प्रयाति यस्य स्मरणमात्रेण तुष्टा स्याद्विष्णुवल्लभा तस्याभीष्टम् ददात्याशूतम् पालयति पुत्रवत् इदम् रहस्यम् हृदयम् सर्वकामफलप्रदम् जपः पञ्चसहस्रम् तु पुरश्चरणमुच्यते त्रिकालमेककालम् वा नरो भक्तिसमन्वितः यः पठेत् शृणुयाद्वापि स याति परमाम् श्रियम् महालक्ष्मीम् समुद्दिश्य निशिभार्गववासरे इदम् श्रीहृदयम् जप्त्वा पञ्चवारम् धनी भवेत् अनेन हृदयेनान्नम् गर्भिण्या अभिमन्त्रितम् ददाति तत्कुले पुत्रो जायते श्रीपतिः स्वयम् नरेणाप्यथवा नार्या लक्ष्मी हृदयमन्त्रिते जले पीते च तद्वंशे मन्दभाग्यो न जायते याश्वयुङ्मासि च शुक्लपक्षे रमोत्सवे सन्निहिते च भक्त्या पठेत् तथैकोत्तरवारवृद्ध्या लभेत सौवर्णमयीम् सुवृष्टिम् ययेकभक्त्यान्वहमेकवर्षम् विशुद्धधीः सप्ततिवारजापि समन्दभाग्योऽपि रमाकटाक्षात् भवेत्सहस्राक्षशताधिकश्रीः श्रीशाङ्घ्रिभक्तिम् हरिदासदास्यम् प्रसन्नमन्त्रार्थदृढैकनिष्ठाम् गुरोस्मृतिम् निर्मलबोधबुद्धिम् प्रदेहि मातः परमम् पदम् श्रीः पृथ्वीपदित्वम् पुरुषोत्तमत्वम् विभूतिवासम् विविधार्थसिद्धिम् सम्पूर्णकीर्तिम् बहुवर्षभोगम् प्रदेहि मे लक्ष्मि पुनः पुनस्त्वम् वादार्थसिद्धिम् बहुलोकवश्यम् वयस्थिरत्वम् ललनासुभोगम् पौत्रादिलब्धिम् सकलार्थसिद्धिम् प्रदेहि मे भार्गविजन्म जन्मणि सुवर्णवृद्धिम् कुरु मे गृहे श्रीः सुधान्यवृद्धिम् कुरु मे गृहे श्रीः कल्याणवृद्धिम् कुरु मे गृहे श्रीः विभूतिवृद्धिम् कुरु मे गृहे श्रीः शिरोबीजम् ॐ यम् हम् कम् लम् वम् श्रीम् ध्यायेल्लक्ष्मीम् प्रहसितमुखीम् कोटिबालार्कभासाम् विद्युद्वर्णाम्बरवरधराम् भूषणाढ्याम् सुशोभाम् बीजापूरम् सरसिजयुगम् बिभ्रतीम् स्वर्णपात्रम् भर्त्रायुक्ताम् मुहुरभयदाम् मह्यमप्यच्युतश्रीः इत्यथर्वरगस्ये उत्तरभागे श्रीमहालक्ष्मीहृदयम्